एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। वृष्ट सहैव दूरा पर्णेन भूस्खलनेन जलप्लवेनश्च देशस्य विभिन्नः सप्तराजमार्गः अवरुद्धः सन्ति। परह्य सायंकालतः अवरुद्ध नारायणगढ़ मुगलिन मार्गखण्डः अधुनापि संचालयितुं शक्तो नास्ति। पुनः भूस्खलनस्य पश्चात् अधुनैव मार्ग संचालनस्य सम्भावना नास्ति। त्यतः वैकल्पिकं मार्गं प्रयोक्तुं चितवन जनपद यातायात व्यवस्थापन प्रहरी कार्यालयेन सर्वे अनुरुद्धा सन्ति। त्वीन खोला स्थाने नैरन्तरेण भूस्खलनानन्तरम् आसन्न शतमीटरमितस्य मार्गस्य आच्छादनम् अनु चितवन जनपद यातायात प्रहरी कार्यालयेन वैकल्पिकं मार्गं प्रयोक्तुम् अनुरुद्धमस्ति। नेपाल प्रहरिणः केन्द्रीय प्रवक्ता प्रहरी नायब महानिरीक्षकः विनोद घिमिरे सम्प्रति एतेषु क्षेत्रेषु भूस्खलनस्य अपसारणस्य कार्यं जायमानमस्ति। एतस्य अनुसारेण कोशी राजमार्गस्य भूटखोला स्थाने मार्गः पूर्णतया अवरुद्धोऽस्ति। कोशी राजमार्गस्य मकालु ग्रामपालिकायाः एकुआ स्थानेऽपि मार्गः अवरुद्धोऽस्ति। एवमेव सिद्धिचरण राजमार्गस्य कटारी नगरपालिकायाः अष्टमवडा क्षेत्रस्य सिरिसे स्थाने मार्गः अवरुद्धोऽस्ति। जलप्लवेन नेपाल चीन मैत्री सेतुः अपि अवरुद्धोऽस्ति। एवमेव अरणिको राजमार्गान्तर्गते भुट्टेकोशी ग्रामपालिकायाः कोदारी स्थाने डाक्लाङ स्थाने च भूस्खलनेन मार्गः अवरुद्धो वर्तते। कालीगण्डकी तटीय मार्गः रत्नराजमार्गः पूर्व पश्चिम राजमार्गः गल्छी त्रिशुली मार्गखण्डश्च एकपक्षतः सञ्चालितः सन्ति। भौतिक पूर्वाधार यातायात मन्त्री कुलमान घिसिङ पर्वत सवेषु यातायात सौविध्यम् सरलम् विधातुम् मार्ग सुरक्षायाः विषये पूर्वेद्युः सम्बद्धै पक्षैस्सह विमृष्टवान् वर्तते। विमर्शनानन्तरं मन्त्री घिसिङ प्रतिक्षणं यात्रिभ्यः मार्गावस्थायाः विषये सूचनां प्रदातुम् असौविध्यानां विषयान् श्रोतुं च निरदिशत्। तदवसरे मन्त्री घिसिङ जलप्लवेन भूस्खलनेन च अवरुद्धान् मार्गान् तत्कालमेव सञ्चालयितुं च निरदिशत्। उपवेशे काष्ठमण्डप उपत्यकातः बहिर्गन्तु कामेषु यातायात साधनेषु सार्वजनिक यातायात साधनानां नागढुङ्गा सिस्नेरी गुहा मार्गात् बहिः सम्प्रेषणस्य व्यवस्थां विधातुं विजयादशम्याः अनन्तरं सार्वजनिक साधनानां प्रवेशनस्य व्यवस्थायै च विमृष्टमस्तीति च मन्त्रिणः सचिवालयेन ज्ञापितं वर्तते। ह्यस्तनोपवेशे भौतिक पूर्वाधार यातायात मन्त्रालयस्य सचिवः यातायात व्यवस्था विभागस्य महानिर्देशकः मार्ग विभागस्य महानिर्देशकः नेपाल प्रहरिणः नेपाल यातायात व्यवसायी राष्ट्रिय महासंघस्य पदाधिकारिणश्च उपस्थिताः आसन्। वर्तमानार्थिक वर्षस्य भाद्रमासं यावत् षट्त्रिंशदुत्तर शतद्वय संख्यातानां परियोजनानां कृते त्रयस्त्रिंशत अब्जानां नवकोटीनां च रूप्यकाणां वैदेशिक निवेशस्य प्रतिबद्धता प्राप्ता अस्ति। उद्योग विभागेन सार्वजनिकृतस्य गत श्रावण भाद्रमासयोः वैदेशिक निवेश सम्बद्धस्य प्रतिवेदनस्य अनुसारेण पञ्चविंशत्युत्तर द्विशत संख्यातासु लघ्वीषु चतस्रिषु मध्यमासु सप्तसु बृहस्तर परियोजनासु च निवेशनस्य प्रतिबद्धता प्राप्ता अस्ति। विभागस्य अनुसारेण निवेशस्याधारेण कृष्युद्योगेषु परियोजना संख्यायाः आधारेण सूचना प्रविधि उद्योगे च सर्वाधिकस्य निवेशस्य प्रतिबद्धता प्राप्ता अस्ति। कृषिमूलकेषु उद्योगेषु नवपरियोजनानां कृते एकविंशत्यब्जानाम् एकोनषष्टिः कोटीनाम् अशीतिर्लक्षाणां च रूप्यकाणां निवेशस्य प्रतिबद्धता प्राप्ता अस्ति इति उद्योग विभागेन ज्ञापितं वर्तते। उद्योग विभागेन अधुनावधि सप्तसहस्राणां पञ्चसप्तत्यधिक शतचतुष्टयस्य च परियोजनानां कृते षण्णां खर्वाणां चतुरशीतेः अब्जानाम् एकोनपञ्चाशत कोटीनाम् एकचत्वारिंशत् लक्ष्याणाम् एकसप्ततेः सहस्राणां च रूप्यकाणां निवेशः स्वीकृतो वर्तते। सनातन हिन्दू परम्परानुसारेण अद्यतः पितृपक्षः सम्पन्नोऽस्ति। आश्विन कृष्ण पक्ष पितृणाम कृते पर्व समान कालो भवति इति धार्मिक ग्रन्थेषु वर्णितमस्ति। षोडश श्राद्ध इति नाम्ना प्रथितासु पितृपक्षस्य षोडश तिथिषु दिवंगत पितृभ्य सश्रद्धम् अन्नजले समर्प्यते। यज्ञ पूजादि विशिष्ट पर्वणाम् अनुष्ठानात् प्राक् आभ्युदायिक श्राद्धरूपेण पितरः पूज्यन्ते इत्यतः दुर्गा पूजा एवं पञ्चकयोः विशिष्ट पर्वणः पूर्वं षोडश तिथिषु विधीयमानहि श्राद्धै पितृऋणाद् मुक्तिर्मेलिष्यति चित्तशुद्धिश्च सञ्जायते इति शास्त्रीय मान्यता वर्तते। पितृपक्षोऽयम् आश्विन कृष्ण प्रतिपद आरभ्य आश्विनमासस्य अमावस्या तिथिं यावत् आसीत्। श्वः नवरात्रि पर्व विजयादशमी पर्व वा प्रारप्स्यते। नेपाल पञ्चाङ्ग निर्णायक विकास समित्या अद्य सूर्यग्रहणस्य स्थितौ सत्यामपि नेपाले दर्शनाभावात् शास्त्रीय मान्यतायाः अनुसारेण सूतकादि अवस्था पालनीया न भवति इति ज्ञापितं वर्तते। नेपालात् द्रष्टुम् अशक्यस्य ग्रहणस्य कथं विधोऽपि दोषो न भवति इत्यतः ग्रहणस्य कृते नियमानां परिपालनम् आवश्यकं नास्ति इति समितेः सदस्यः प्राध्यापकः डॉ देवमणि भट्टराय समस्पष्टयत्। अद्य आश्विनकृष्णपक्षस्य अमावस्यायां तिथौ जायमानः ग्रहणयोगः अस्ट्रेलिया न्यूजीलैण्ड फिजी टोंगा अण्टार्क्टिका प्रभृतिषु देशेषु एव द्रष्टुं शक्यते इति ज्ञापितं वर्तते। जेएनजी युवसमूहस्य प्रदर्शनस्य क्रमे त्रोटन भञ्जनाग्निदाहादि कार्यै खण्डरावस्थायां कुरूपावस्थायाञ्च प्राप्ते सिंहप्रासाद परिसरे नैरन्तरेण तीव्रगत्या संभारस्य रंगलेपनस्य च कार्यं संचलदस्ति। अग्निदाहेन दग्धासु सिंहप्रासादस्य संरचनासु धूम्रेण कृष्णकृतासु मन्त्रालयानां संरचनासु च सर्वत्र भित्तिक्षेत्रे जलेन प्रक्षालनानन्तरं रंगलेपनं क्रियमाणं वर्तते। अग्निदाहेन क्षतिग्रस्तानाम् आसन्न सहस्राधिक साधनानाम् अपसारणस्य व्यवस्थापनस्य च कार्यमपि तस्यामेव गतौ संचलदस्ति। वीरगंज महानगरपालिकया वर्तमानार्थिक वर्षस्य कृते विनियोजितस्य वित्तस्य संशोधनं कृत्वा पुनर्निर्माणे व्ययीकरणाय निर्णीतं वर्तते। गत भाद्रमासस्य चतुर्विंशे दिवसे जेएनजी समूहस्य युवभि विहितस्य आन्दोलनस्य क्रमे महानगरपालिकायाः कार्यालय भवनेन सह प्रायः संरचनाः अग्निदाह त्रोटन भञ्जनादि कार्ये ध्वस्तीकृताः सन्ति। नगरस्य सम्पदां धूलिकावस्थायां प्राप्तेः पश्चात् नगरवासिभ्यः सेवाप्रवाहे नैरन्तर्यं प्रदातुं पुनर्निर्माणस्य कार्यस्य प्राथमिकतायां स्थापनस्य आवश्यकतां निश्चित्य नगरसभया वर्तमानार्थिक वर्षस्य आयव्ययकं संशोध्य पुनर्निर्माणकार्ये निवेशं कर्तुं निर्णीतं वर्तते। काष्ठमण्डप महानगरपालिकया आगामि सप्ताहात् पर्वोत्सवलक्षितम् आपणानुगमनं विधास्यते इति ज्ञापितं वर्तते। गत भाद्रस्य त्रयोविंशे चतुर्विंशे च दिवसयोः आराश्रम जेएनजी युवसमूहस्य आन्दोलनस्य कारणेन सप्ताहम् अतिक्रम्य परं गतम् आपणस्य अनुगमनस्य कार्यम् आगामिनः सप्ताहात् प्रारब्धुं पूर्वकार्यं विहितमस्ति इति महानगरपालिकया ज्ञापितं वर्तते। अनुगमनसमूहेन प्रदर्शनीमार्गवर्तिनः टुकुच्चा खाद्यव्यञ्जनापणस्य खसीबजारस्थानस्य खाद्यापणस्य खाद्यसंस्थान सुलभ मूल्य विक्रय कक्षस्य अन्येषां खाद्य व्यञ्जनापणानाञ्च अनुगमनं करिष्यते इति महानगरपालिकया ज्ञापितं वर्तते। इति समाचारः।